सदाचित् स्वरूपं सदा सत् स्वरूपं सदानन्दरूपं
सदा पूर्णरूपं सदा नित्यरूपं सदैकस्वरूपं शिवं त्वां नमामि सदैकस्वरूपं शिवं त्वां नमामि
सदा निर्गुणं सद्गुणं वा सदैव सदानन्तरूपं च एकं सदैव
सदा शान्तरूपं च शुभ्रं सदैव सदैकस्वरूपं शिवं त्वां नमामि सदैकस्वरूपं शिवं त्वां नमामि
सदा ज्ञानिनां ज्ञानरूपं त्वमेव सदा योगिनां ध्यानगम्यं त्वमेव
सदा प्राणिनां प्राणरूपं त्वमेव सदैकस्वरूपं शिवं त्वां नमामि सदैकस्वरूपं शिवं त्वां नमामि
सदा ब्रह्मणा प्रार्थनीयस्वरूपं सदा विष्णुना वन्दनीयस्वरूपं
सदा धाम तच्चिद्घनानन्दरूपं सदैकस्वरूपं शिवं त्वां नमामि सदैकस्वरूपं शिवं त्वां नमामि
सदा वेदशास्त्रेण स्तुत्यं महेशं सदा देवदेवादिदेवं महेशं
सदा ब्रह्मसूत्रादिमृग्यं महेशं सदैकस्वरूपं शिवं त्वां नमामि सदैकस्वरूपं शिवं त्वां नमामि
सदा सृष्टिनां सर्जकं तं महेशं सदा सृष्टिनां पालकं तं महेशं
सदा सृष्टिनां नाशकं तं महेशं सदैकस्वरूपं शिवं त्वां नमामि सदैकस्वरूपं शिवं त्वां नमामि
सदा सर्वदा चिन्तनीयं महेशं सदा सर्वदा वन्दनीयं महेशं
सदा सर्वदा कीर्तनीयं महेशं सदैकस्वरूपं शिवं त्वां नमामि सदैकस्वरूपं शिवं त्वां नमामि
सदा शुद्धबुद्धं सदा मुक्तरूपं सदानन्तमेकं सदा चित् स्वरूपं
सदा सर्वदा निर्मलं नित्यरूपं सदैकस्वरूपं शिवं त्वां नमामि सदैकस्वरूपं शिवं त्वां नमामि सदैकस्वरूपं शिवं त्वां नमामि।